इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य 16वें ब्रिक्सेति शिखर सम्मेलने इतर कजान इति क्षेत्रे रूसदेशस्य राष्ट्रपतिना व्लादिमीर पुतिन इत्यनेन सह द्विपक्षीयोपवेशनं कृतवान्। रूस यूक्रेन विवादे श्रीमोदिना भणितं यत् अनयोर्मध्ये चलायमानः विवादः शान्तिपूर्णरीत्या शमितः स्यादिति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्ल्यां 23-2000 पञ्चमं राष्ट्रिय जल पुरस्कारं दत्तवती। नवदिल्लिना युद्धग्रस्तायो फिलिस्तीन देशाय 30 टन परिमितस्य मानवीय सहायता सामग्री इत्यस्य प्रथमपुटकं सम्प्रेषितम्। भारतीय रिजर्व बैंक इत्यस्य प्रशासकेन शक्तिकांत दासेन उक्तं यत् भारतस्य विकास कथा नैरन्तर्येण वरिवर्धमानास्ति, यतोहि अस्याः मूलचालकौ उपभोक्ता निवेशापेक्षा च गतिमन्तौ स्तः। अपि च बंगोपसागरीय क्षेत्रे समागतः सागरीय झंझावातः दाना इत्याख्यः उग्रतां भजते। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अद्य 16वें ब्रिक्सेति शिखर सम्मेलने इतर कजान इति क्षेत्रे रूसदेशस्य राष्ट्रपतिना व्लादिमीर पुतिन इत्यनेन सह द्विपक्षीयोपवेशनं कृतवान्। उपवेशनेऽस्मिन् मोदिना प्रोक्तं यत् गतेषु 3 मासेषु रूसदेशं प्रति कृता तस्य यात्रा उभयोर्देशयोः मध्ये घनिष्ठसम्बन्धेन सह गह्वरीं मित्रतामपि दर्शयति। तेनोक्तं यत् कजानक्षेत्रे नूतनस्य वाणिज्यदूतावासस्य उद्घाटनेन उभयोः देशयोर्मध्ये सम्बन्धाः इतोऽपि सुदृढाः भविष्यन्ति।
मैं आपकी मित्रता, गर्मजोशी भरे स्वागत और आतिथ्य सत्कार के लिए हार्दिक आभार व्यक्त करता हूं। मेरे लिए खुशी की बात है कि ब्रिक्स समिट के लिए कजान जैसे खूबसूरत शहर में आने का अवसर मिला है। इस शहर के साथ भारत के गहरे और ऐतिहासिक संबंध रहे हैं। कजान में भारत के नए कॉन्सुलेट के खुलने से ये संबंध और मजबूत होंगे।
रूस यूक्रेन विवादे श्रीमोदिना भणितं यत् रूस यूक्रेनयोर्मध्ये चलायमाने विवादे भारतदेशः निरन्तरतया सम्पर्के अस्तीति। तेन भारतस्य दृष्टिकोणं पुनामरेडितं यत् रूस यूक्रेनयोर्विवादः शान्तिपूर्णरीत्या शमितः स्यादिति। शिखर सम्मेलनस्य अस्य मुख्य विषयः अस्ति न्यायपूर्ण वैश्विक विकासेन सह सुरक्षायै बहुपक्षवादस्य सशक्तिकरणमिति। प्रधानमन्त्रिणा अस्याः यात्रायाः शुभारम्भात् प्राक् प्रोक्तमासीत् यत् भारतदेशः ब्रिक्स देशेषु आभ्यन्तरिकी घनिष्ठता सहयोगश्च सुदृढा भवेदिति विचारयति। तेनोक्तं यत् ब्रिक्स समूहः विकासलक्ष्यं बहुपक्षवादः, जलवायुपरिवर्तनम्, आर्थिकसहयोगः, लोचपूर्णायाः आपूर्तिशृङ्खलायाः विनिर्माणादिना सह सांस्कृतिकबिन्दुभिः समं जनेषु पारस्परिकसम्पर्काञ्च अभिवर्धनाय महत्त्वपूर्णमञ्चत्वेन प्रथितोऽस्ति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्ल्यां 23-2000 पञ्चमं राष्ट्रिय जल पुरस्कारं दत्तवती। केन्द्रीय जलशक्ति मन्त्रालयेन सर्वश्रेष्ठ राज्यं, सर्वश्रेष्ठ जनपदं, सर्वश्रेष्ठ ग्राम पञ्चायत, सर्वश्रेष्ठ नगरीय स्थानीय संस्था, सर्वश्रेष्ठ जल उपयोक्तृ संघः, सर्वश्रेष्ठ नागरिक समाजं च समेत्य 9 श्रेणिषु 38 विजेतारः घोषिताः सन्ति। सर्वोत्तमराज्यस्य वर्गे ओडिशा राज्यं प्रथमपुरस्कारं, उत्तरप्रदेशराज्यं द्वितीयस्थानं, गुजरात पुदुच्चेरी राज्ये संयुक्तरूपेण तृतीयस्थानं च प्राप्तवन्तः। प्रत्येकं पुरस्कार विजेत्रे प्रशंसापत्रं, पारितोषिकं तथा च कतिपयेषु वर्गेषु धनपुरस्कारान् अपि प्रदीयन्ते। अस्मिन् अवसरे राष्ट्रपतिः मुर्मुः अवदत् यत् जलजीवन अभियानस्य अन्तर्गतं देशे 78% ग्रामीणगृहेभ्यः नलकूपजलसंयोजनस्य व्यवस्था अभवत्। इतः पूर्वं केवलं 17% ग्रामीणगृहेषु एव सुरक्षितजलस्य उपलब्धिः आसीत्।
2019 में सरकार द्वारा जल जीवन मिशन का शुभारंभ किया गया है। इस मिशन की शुरुआत के समय केवल 17% ग्रामीणों परिवार के पास टैप वाटर की सुविधा थी। आज 78% से अधिक परिवारों के पास नल से जल पहुंचा दिया गया है।
संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। समेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। भारतदेशेन नवदिल्लीतः युद्धग्रस्ताय फिलिस्तीनदेशाय 30 टन परिमितस्य मानवीय सहायता सामग्री इत्यस्य प्रथमपुटकं सम्प्रेषितम्। भारतीय रिजर्व बैंक इत्यस्य प्रशासकेन शक्तिकांत दासेन उक्तं यत् भारतस्य विकासकथा नैरन्तर्येण वरीवर्धमानास्ति, यतोहि अस्याः मूलचालकौ उपभोक्ता, निवेशापेक्षा च गतिमन्तौ स्तः। आरबीआई इत्यस्य मासिक सन्देशे श्रीदासेन उक्तं यत् भारते 20, 24, 25 इति वित्तवर्षाय सकल गृहगतोत्पादने 7.2% अंकस्य वृद्धिः अग्रेपि स्थास्यतीति संभावना वर्तते। केन्द्रीय गृह सहकारिता मंत्री अमित शाह अद्य अवदत् यत् भारतदेशः द्वितीय श्वेतक्रान्तिं कर्तुं सज्जः अस्ति, यस्य उद्देश्यं देशस्य सर्वेषां 8 कोटि दुग्धोत्पादकानां भविष्यत्काले सहकारी मूल संरचनया सह संयोजनमस्ति। अद्य आनन्दनगरे राष्ट्रिय दुग्ध विकास मण्डलस्य हीरक जयन्ती समारोहं सम्बोधयन् श्री शाह अवदत् यत् वर्तमानकाले दुग्धोत्पादन कृषकेषु केवलं 1.5 कोटि एव कृषकाः सहकारिभिः सह सम्बद्धाः सन्ति, तेषु बहुसंख्यकाः अद्यापि शोषणेन पीडिताः सन्तीति।
एनडीडीबी ने पूरे देश भर के किसानों को, देश भर की सहकारिता, देश भर के गांव में काम करने वाली हमारी किसान माताओं बहनों, न केवल उनका सशक्तिकरण किया, उनको संगठित किया और अपने हक के लिए जागरूक करने का काम किया।
बंगोपसागरीय क्षेत्रे समागतः सागरीय झंझावातः दाना इत्याख्यः उग्रतां भजते। अस्मिन् गुरुशुक्रवासरयोः रात्रौ ओडिशा प्रति प्रापणाय झंझावातोयम् अग्रसरः अस्ति। भारतीय ऋतुविज्ञान विभागेन अस्य सद्यः आगम्यमानस्य संकटस्य मार्गसूचना संदत्ता अस्ति। तदनुसारं बालासोर अथ भद्रक उतोवा केन्द्रपाड़ा तटैः सह अस्य संपर्कस्य संभावना अस्ति। सेनाप्रमुखः जनरल उपेन्द्र द्विवेदी इत्यनेन विषयेऽस्मिन् सबलं प्रतिपादितं यत् भारत चीनयोर्मध्ये विश्वासस्य प्रतिस्थापनम् उभयोः देशयोः मध्ये सकारात्मक सुदृढ सम्बन्धेभ्यः आवश्यकमस्तीति। जनरल द्विवेदिना अद्य नवदिल्ल्याम् एकस्मिन् कार्यक्रमे उक्तं यत् पूर्वी लद्दाख क्षेत्रस्य वास्तविक नियन्त्रण रेखायां पुनश्चक्रीय निरीक्षण व्यवस्थायाः सम्बन्धे भारत चीनयोर्मध्ये सद्यः एव जातायां सन्धौ टिप्पणीं कुर्वता प्रोक्तं यत् अस्य प्राथमिकोद्देश्यः अस्ति यत् 20+2000 वर्षस्य स्थितिं प्रति सेनयोः प्रत्यावर्तनमिति। तेनोक्तं यत् उभावपि पक्षौ विघटनानन्तरं चरणबद्धरीत्या अग्रे गमनाय पारस्परिकतया आश्वस्तौ सहमतौ च भवेतामिति आवश्यकमस्ति। ध्यातव्यमस्ति यत् भारत चीन देशौ पूर्वीय लद्दाख क्षेत्रे वास्तविक नियंत्रण रेखायां रक्षा व्यवस्थाम् आधृत्य सहमतौ जातौ। नवदिल्ल्यां वार्ताहरान् संबोधयन् विदेश सचिवः विक्रम मिस्त्री इत्येषः सूचितवान् यत् अनया सहमत्या 22000+2000 वर्षे जातां चिन्तां न्यूनीकर्तुं तस्याः च समाधानम् अन्वेष्टुं साहाय्यं मेलिष्यति। असौ अग्रे अवोचत् यत् उभयोः पक्षयोः मध्ये विस्तारपरायाः चर्चायाः अनन्तरं प्रहरी व्यवस्थायां सहमतिः जाता। झारखण्डे द्वितीयचरणस्य विधानसभा निर्वाचनस्य अधिसूचना अद्य प्रकाशिता। अस्माकं वार्ताहरः अवदत् यत् अस्मिन् चरणे नवम्बर मासस्य 20 दिनाङ्के आहत्य 38 आसनानां कृते मतदानं भविष्यति इति वार्ताः।